यातृगुणो यः पुरुषस्तादृशावचनेन सह देशकालानुसारेण भाषणीयो न चान्यथा।